एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल। नेपाल कम्युनिष्ट पार्टी नेकपा दलेन विभिन्नानां सांविधानिक निकायानां रिक्तेषुपदेषु शीघ्रं पूर्तये सर्वकारः अनुरुद्धो वर्तते। प्रधानमन्त्री निवासे बालुवाटारस्थाने गतदिने उपविष्टेन सचिवालय उपवेशेन सांविधानिक परिषदः उपवेशम् आयोज्य शीघ्रं पदपूर्तिं विधातुं प्रधानमन्त्री अनुरुद्धोऽस्तीति नेकपा दलस्य प्रवक्ता नारायणकाजी श्रेष्ठः अज्ञापयत्। सांविधानिक निकायानां रिक्तेषु पदेषु पदपूर्ति प्रक्रियाम् अग्रे वर्धयितुं अन्ये सम्बद्धाः सर्वे अनुरुद्धाः सन्तीति उपवेशस्य पश्चात् प्रवक्ता श्रेष्ठः अबोधयत्। उपवेशेन दलस्य सांगठनिक्याः एकतायाः अवशिष्टानां कार्याणां पूरणाय सचिवालय उपवेशे आवश्यक प्रस्तावम् आनेतुम् अध्यक्षद्वयाय महासचिवाय च दशदिनानां समयः प्रदत्तो वर्तते। ततः आगतं प्रस्तावं विमृश्य आवश्यकनिर्णयो विधास्यते इति प्रवक्ता श्रेष्ठः अवदत्। प्रवक्ता श्रेष्ठः सर्वकारस्य कार्याणां प्रभावकारितायाः वर्धनाय शीघ्रातिशीघ्रं मन्त्रिपरिषदं पुनर्घटयितुमपि उपवेशेन बलं प्रदत्तमिति अभासत। प्रधानमन्त्री केपी शर्मा ओली अनुकूल दिशि गतिशीलतया अग्रे वर्धनाय समाजसेवायां प्रवर्तनायै सर्वान् अनुरुणद्धि। एकचत्वारिंशस्य सामाजिक सेवा दिवसस्य अवसरे समाज कल्याण परिषदा ह्य आयोजितं कार्यक्रमं संगणकीय श्रव्य दृश्य प्रविधेः माध्यमेन सम्बोधयन् प्रधानमन्त्री ओली अगदत् सर्वकारीयस्य सर्वकारीयेतरस्य च अपेक्षया वैयक्तिक रूपेण मानवीय भावनया समाजसेवायां प्रवर्तनीयम्। असौ समाज विकासं सम्यक रूपेण अग्रे वर्धयितुं सर्वैः पक्षैः समाज सेवी भावनया सहयोगी भावनया मानवीय भावनया च अग्रे वर्धनाय बलं प्रादात्। कार्यक्रमे महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री पार्वत गुरूङ अभाषत बाल बालिकानां सर्वाङ्गीणं विकासं विधाय महिला हिंसा छाउपडी प्रथा प्रवृत्ति विकृतीनां अन्त्यं विधाय च समाजस्य अग्रे वर्धनत्वेन आगामिनी कार्यदिशा निर्धारयिष्यते। राष्ट्रपतिना विद्यादेवी भण्डारिणा प्रेस काउन्सिल नेपाल संस्थया प्रदीयमानः गोपाल दास पत्रकारिता पुरस्कारः वरिष्ठ पत्रकाराय शम्भु श्रेष्ठाय प्रेस काउन्सिल आचार संहिता पुरस्कारः अमित ढकालाय च प्रदत्तौ स्तः। प्रेस काउन्सिल नेपालस्य 150वें वार्षिकोत्सवस्य अवसरे ह्य आयोजिते कार्यक्रमे पुरस्कारं प्रददति राष्ट्रपतिः भण्डारी अवोचत् दायित्ववाहिनी पत्रकारिता सुसूचित नागरिकाः उत्तरदायी सर्वकारश्च लोकतन्त्रस्य अपरिहार्य तत्त्वानि वर्तन्ते। सभामुखेन अग्निप्रसाद सापकोटाभिधेन प्रेस काउन्सिल संस्थया विभिन्नासु विधासु पुरस्कृताः पत्रकाराः सम्मानिताः वर्तन्ते। प्रेस काउन्सिल नेपाल संस्थायाः 150वें वार्षिकोत्सवस्य अवसरे काष्ठमण्डपे ह्य आयोजिते कार्यक्रमे सभामुख सापकोटा प्रेस काउन्सिल सुरेन्द्र बहादुर वाग्ले पुरस्कारेण क्रियाशील पत्रकारिता पुरस्कारेण एतद् विक्रमाब्दीय युवा पत्रकारिता पुरस्कारेण साहित्यिक पत्रकारिता पुरस्कारेण भाषागत पत्रकारिता पुरस्कारेण च विभिन्नान् पत्रकारान् सममानयत्। नेपाले ह्य अतिरिक्तेषु 1,177 च जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डा जागेश्वर गौतम ह्य 11,000 शतस्य 45 निदर्शनानां विहितेन परीक्षणेन 1,177 च जनेषु संक्रमणं पुष्टिभूतमिति अज्ञापयत्। एतस्य अनन्तरं नेपाले कोरोना संक्रान्तानां जनानाम् अद्यावधि समग्र संख्या 67,632 च प्राप्तास्ति। गतदिने अतिरिक्ता 823 जना संक्रमणात् मुक्ता सन्ति। ह्य कोरोना संक्रमणेन अतिरिक्तं जनद्वयं मृतमस्ति। अनेन सहैव नेपाले कोरोना संक्रमणेन मृतानां जनानां समग्र संख्या 429 च प्राप्ता वर्तते। यातायात व्यवस्था विभागेन स्वास्थ्य सुरक्षायाः मापदण्डम् अवलम्ब्य सुरक्षित यात्रां कर्तुं कारयितुं च सर्वे अनुरुद्धाः सन्ति। सार्वजनिक यातायातस्य साधनानां सञ्चालनस्य अवस्थायां कोविड 19 संक्रमणस्य प्रसरण निवारणाय सहयोक्तुं विभागेन अनुरुद्धं वर्तते। विभागेन यात्रायाः क्रमे आत्मने आवश्यकं भोज्य पदार्थान् गृहात् स्वयं पोटलिकां निर्माय सहैव नीत्वा चलितुमपि अनुरुद्धं विद्यते। कोरोना विषाणोः संक्रमणस्य प्रतिदिनं वर्धनस्य वर्तमानावस्थायां केवलं अत्यावश्यक कार्यार्थं यात्रां कर्तुमपि विभागेन अनुरुद्धमस्ति। अनशन रतस्य डाक्टर गोविन्द केसी इत्यस्य उपचाराय सर्वकारेण अष्टसदस्यीय चिकित्सक समूह संघटितो वर्तते। केसी इत्यस्य राष्ट्रिय ट्रमा सेन्टर नामधेय उपचार केन्द्रे संस्थाप्य उपचारणार्थं डाक्टर रेवती रमण मल्लस्य संयोजकत्वे अष्टसदस्यीय समूह संघटितोऽस्तीति केन्द्रस्य निमित्त प्रमुख चिकित्सा सुपर्यवेक्षक डाक्टर सन्तोष पौडेल अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन चिकित्सा विज्ञान राष्ट्रिय प्रतिष्ठानस्य कार्यकारी परिषदा सोमवासरे जुम्ला जनपदात नेपालगंज स्थानं प्राप्तस्य ततश्च आनीतस्य डाक्टर केसी इत्यस्य स्वास्थ्योपचाराय यः समूह संघटितो वर्तते। अस्यैव आश्विन मासस्य पञ्चदश दिवसात् खाद्य राष्ट्रियस्वपि नियमितम् उड्डयनम् प्रारप्स्यते। पर्यटन मन्त्रालयस्य सचिवः केदार बहादुर अधिकारी एतत्पूर्वम् आरक्षणोड्डयनम् एव विहितेषु दोहा रियाद कुवेत स्थानेषु अस्यैव आश्विनस्य पञ्चदश दिवसात् नियमितोड्डयनम् विधास्यते इति अज्ञापयत्। सर्वकारेण विपन्नवर्गस्य जनेभ्यः प्रारम्भिकचरणस्य निःशुल्कम् आकस्मिकोपचार सेवा प्रारब्धा वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयेन वर्तमानार्थिक वर्षस्य नीति कार्यक्रमाणाम् अनुसारेण सर्वकारीय चिकित्सालयेषु विपन्न नागरिकाणां कृते निःशुल्कम् आकस्मिकोपचार सेवा प्रारब्धास्ति। मन्त्रालयेन प्रारम्भे राष्ट्रिय ट्रमा सेन्टर नाम्नः उपचार केन्द्रात् प्रारब्धा निःशुल्कम् उपचार सेवा ह्यः कान्ति चिकित्सालयात् अपि प्रारब्धेति मन्त्रालयस्य सहप्रवक्ता डाक्टर समीर कुमार अधिकारी अबोधयत्। प्रतिनिधि सभायाः अन्तर्गतम् अर्थसमिते ह्यस्तनोपवेशेन राष्ट्रस्य आर्थिक क्षेत्रस्य अध्ययनाय चतस्रः उपसमितयः संघटिताः सन्ति। उपवेशेन सार्वजनिक व्यय क्रयण निवेशन राष्ट्रिय गौरवायोजना व्यवस्थापन सम्बद्धोपसमितिः राजस्वक्षरण राजस्वग्रहण राजस्व प्रशासनोपसमितिः कोषागार वित्तीय संस्थोपसमितिः सार्वजनिक संस्थानाध्ययनोपसमितिश्च संघटिताः सन्ति। समितेः सभापतिः कृष्णप्रसाद दाहालः अर्थतन्त्रस्य विभिन्नानि क्षेत्राणि अधीत्य सर्वकाराय परामर्शनं प्रदातुम् उपसमितयः संघटिताः इति अज्ञापयत्। सर्वोच्च न्यायालयेन सामाजिकोत्तर दायित्वस्य अन्तर्गतं कोषागारै उद्योगैश्च स्वस्य लाभस्य 1% वित्तम् कोरोना निरोधन नियन्त्रण कोषे स्थापनीयम् इत्यस्य कारणस्य विषये लिखितोत्तरम् अभियाचितं वर्तते। न्यायाधीशस्य हरिप्रसाद फुयालस्य एकल न्यायपीठेन गत सोमवासरे प्रदत्ते आदेशे नेपाल राष्ट्र कोषागारेण गत आर्थिक वर्षस्य लाभस्य 1% वित्तं कोषे स्थापनीयमिति निगद्य प्रदत्तस्य निर्देशनस्य कारणं पञ्चदश दिनानाम् अभ्यन्तरे लिखितरूपेण प्रस्तोतुम् आदिष्टमस्ति इति समाचारः।